ॐ यो वां पुष्पं वेद पुष्पवान् व्रजावान् वसुमान् भवति चन्द्रमा वा अपां पुष्पं पुष्पवान् व्रजावान् वसुमान् भवति य एवं वेद यो वामायतनं वेद आयतनवान् भवति ॐ श्रीमहागणेश्वराय नमः मन्त्रपुष्पाञ्जलिं समर्पयामि।